सर्वेभ्यो नमः स्वागतम् प्रथमतया वयं प्रार्थनां वदामः राधा भगिनी
ॐ सहनावगतो सहनौ भुनक्तो सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः भगिनि अस्तु इदानीं वयं गतवर्गे वयं क्रियापदस्य विभज्यप्रयोगः कृतवन्तः अपि सङ्ख्याः किञ्चित् पुनस्मरणं कृतवन्तः अद्य वयं क्रियापदस्य विभज्यप्रयोगः तस्य किञ्चित् अधिकं पठामः अस्तु वयं गीतासोपाने अष्टादश अध्यायं पश्यामः तत्र चित्रा भगिनी भवती पठति वा
हा एतानि वाक्यानि सावधानतया पठत अवगच्छत अवच कृष्णः अर्जुनम् उपदिशति कृष्णः अर्जुनस्य उपदेशं करोति प्रबन्धतज्ञाः गीताव्याख्यानं शृण्वन्ति प्रबन्धतज्ञाः गीताव्याख्यानस्य श्रवणं कुर्वन्ति
समीचीनम् अस्तु इदानीम् एवमेव अत्र स्थापयति इति अस्ति चेत् स्थापनं करोति इति भवति अत्र रथं स्थापयति इति भवति परन्तु विभजनं कुर्मः चेत् रथस्य तत्र षष्ठी भवति रथस्य स्थापनं करोति एवमेव तत्र वादयति इति अस्ति तस्य विभजनं वादनं करोति इति तत्र भेरीं वादयति विभज्यप्रयोगः अस्ति चेत् तस्य षष्ठी भेर्याः वादनं करोति विदारयति इति अस्ति चेत् तस्य विभजनं विदारणं करोति हृदयं विदारयति हृदयस्य तत्रापि षष्ठी विदारणं करोति अनन्तरं प्रेरयन्ति अत्र प्रेरणं कुर्वन्ति इन्द्रियाणि प्रेरयन्ति इन्द्रियाणां प्रेरणं कुर्वन्ति इति अनन्तरं प्रविशति इति अस्ति चेत् प्रवेशं करोति कुरुक्षेत्रं प्रविशति कुरुक्षेत्रस्य प्रवेशं करोति उद्घोषयति उद्घोषणं करोति जयम् उद्घोषयति जयस्य उद्घोषणं करोति इति अस्तु इदानीं कोष्टकात् उचितं पदं चित्वा वाक्यं पूरयत अस्तु प्रथमं द्वारम् उद्घाटयति द्वारस्य किं करोति
उद्घाटनं
करोति समीचीनं अनन्तरं आतिथ्यं सत्करोति अतिथेः किं करोति
तत्कारं करोति,
तत्कारं करोति,
तत्कारं, समीचीनं। अश्वान् निबध्नाति, अश्वानां किं करोति,
निबन्धनं करोति,
निबन्धनं करोति,
निबन्धनं करोति। ध्वजं प्रतिष्ठापयति, ध्वजस्य किं करोति,
प्रतिष्ठापनं
करोति,
प्रतिष्ठापनं करोति। अनन्तरं कीर्तिम् अर्जयामि, कीर्तेः किं करोमि,
करोमि।
शत्रुम् आह्वयसि, शत्रोः किं करोषि,
आह्वानं
करोषि। समीचीनम्। अस्तु, इदानीम् अत्र प्रश्नाः सन्ति वा
भगिनि? प्रेरयन्ति इत्युक्ते अर्थं किं, विदारयति इत्युक्ते
कुत्र,
हृदयं विदारयति, इन्द्रियाणि प्रेरयन्ति।
प्रेरयन्ति इत्युक्ते
is it like to inspire?
Prerayanti itukte katam tatra excite athava urge.
Yeah, the senses, indriyani senses are getting
urge athava stimulate iti asti athava set in motion.
नमस्कार भगिनि।
नमस्कारः नागेन्द्रमहोदय।
Cry with pain? Or
किं भगिनि,
क्रैङ्ग् वित् पेन्, विदारणं लैक् हर्ट्?
इत्युक्ते स्काटर् अथवा
ओके, हृदयं विदारयति।
तत्र सपोर्ट् इति अपि अस्ति।
ओके,
हौ डु यु मेक् सेन्स् आफ़् इट् भगिनि, हृदयं विदारयति?
हि सपोर्ट्स्,
to give support, is it?
Anantaram
Bhagini, the last one, Bhagini, Shatruh. Now, Shatruh and Paroshi, what is the new form about that? To Shatruh is what? Ekvachan, Bhagavachan, Bhagavachan?
Ekavachanam.
So Shatrum is not Shatrushya? Because it's a special form?
Na Mahodhya.
Shatrum is not like Phalam?
No.
No, no, sorry. So Shatrum is the...
Tatra Dvitiya Bhaktihi Asti Atra.
Aam.
Shatrum.
एतत् षष्ठीय भक्तिः अस्ति।
एकवचनम्।
अस्तु, अन्यप्रश्नाः सन्ति वा?
शत्रुं नपुंसकलिङ्गं वा भगिनि?
शत्रुमिति द्वितीया भक्तिः।
आम्, किं किं पद लिङ्गं?
लिङ्गं पुल्लिङ्गं, शत्रुः इति। अस्तु, अनन्तरम् अत्र अवधेयं पठामः। अस्तु, लक्ष्मीभगिनी भवती पठतु.
अवधेयं सज्जयः सञ्जयः धृतराष्ट्रं बोधयति. कर्तृपदं प्रथमाविभक्तिः सञ्जयः. कर्मपदं द्वितीयाविभक्तिः धृतराष्ट्रं. बोधयति क्रियापदं. सञ्जयः धृतराष्ट्रस्य बोधनं करोति. कर्तृपदं प्रथमाविभक्ति सञ्जयः. धृतराष्ट्रस्य कर्मपदं हिय षष्टिविभक्ति. अत्र षष्टिविभक्ति धृतराष्ट्रस्य कर्मपदं. बोधनं करोति क्रियापदं. विभज्य लिखितं. विभज्य ईक्वल्स् क्रियापदस्य विभागं कृत्वा. यथा आकर्षयति आकर्षणं करोति. निवेदयति निवेदनं करोति.
समीचीनं. अत्र पश्यन्ति चेत् बोधयति तत्र सामान्यक्रियापदमस्ति. तत्र धृतराष्ट्रमिति कर्मपदं तृतीयाविभक्तिः एव अस्ति. परन्तु विभज्य लिखामः चेत् बोधनं करोति इति तदा कर्मपदं षष्टिविभक्तिः भवति. अस्तु. अत्र प्रश्नाः सन्ति वा? प्रश्नाः न सन्ति चेत् अस्तु. एतत् अभ्यासं कुर्मः. दृश्यते किल? एतत् पुस्तके नास्ति. अहम् अन्यत् पुस्तकम् अहम् अत्र अस्ति. अस्तु. अधः लिखितानि वाक्यानि उदाहरणानुगुणं परिवर्त्य लिखन्तु. अत्र केवलं तस्य षष्टि कुर्मः. अस्तु. नागेन्द्रमहोदय, भवान् प्रथमं वदतु, अपि द्वितीयं करोतु.
ग्रन्थः ग्रन्थस्य पठनम् अकरोत्. समस्यायाः परिहारं करोमि.
समीचीनम्. इदानीं प्रिया भगिनी तृतीयं.
विद्यालयः उद्घाटनं कुर्मः. विद्यालयस्य उद्घाटनं कुर्मः.
अस्तु. समीचीनं
भगिनि. कुर्मः इति बहुवचन. विद्यालयस्य और विद्यालयानां?
विद्यालयस्य. तत्र क्रियापदं षष्टिविभक्तिः. तत् षष्टिविभक्तिः कर्तृपदं नास्ति. तत्र कुर्मः इति अस्ति चेत् किं भवति? वयं
वयं कुर्मः.
वयं कुर्मः इति अस्ति. अस्तु. इदानीं राधा भगिनी.
मित्रस्य आह्वानं करोति.
अनन्तरं शीला भगिनी.
चित्रस्य मण्डनं करोति.
समीचीनम्. इदानीं चित्रा भगिनी.
Prastavam. This will be like
Shashti. Vanam.
Prastavasya it will come, is it? Prastavasya Uspasthanam Karomi.
Upasthapanam Karomi.
उपस्थापनं करोमि. प्रस्तावस्य उपस्थापनं करोमि.
मुखम् इति अस्ति. इदानीं लक्ष्मीभगिनी.
मुखस्य विस्तरणं करोषि.
अनन्तरं नागेन्द्रमहोदय.
पाठस्य परिशोधनं कुर्मः.
समीचीनं. प्रिया भगिनी,
श्लोकस्य अनुवादनं करोमि.
अनन्तरं राधा भगिनी,
विज्ञानप्रदर्शिन्याः प्रदर्शिन्याः आयोजनं करोति. प्रदर्शिन्याः आयोजनं
समीचीनम् अस्ति. अनन्तरं
भगिनी, इति पुस्तके नास्ति भगिनी?
एतत् पुस्तके नास्ति. अहम् एतत् लिङ्क् प्रेषयामि, भवन्तः पश्यन्तु. अस्तु, अत्र उदाहरणानुसारं वाक्यानि रचयन्तु. अत्र प्रथममस्ति वाचनं करोमि. तत्र किमपि तत्र किमपि भवन्तः शास्त्रपदम् उपयोगं कुर्वन्तु. न किमपि न, तत्र क्रियापदं दृष्ट्वा कुर्वन्तु. तत्र करोति इति अस्ति चेत् कः इति उपयोगं कर्तुं शक्नुवन्ति, एषः तत्र करोति इति अस्ति चेत् भवान् करोति इति करोति, कुर्वन्ति, तत्र करोति अथवा कुर्वन्ति इति अस्ति चेत् तत्र चाय्स् भवति. परन्तु करोमि इति अस्ति चेत् अहमेव. करोषि इत्युक्ते किं भवति? कुर्मः इति अस्ति चेत् वयं. समीचीनम् अस्तु. अत्र द्वितीयमस्ति स्मरणं करोति. अहमिति तत्र दत्तमस्ति. अहमिति दत्तमस्ति चेत् तत्र किमपि पेरेन्थिसिस् मे मध्ये अस्ति, तत् भवन्तः षष्टिविभक्तिरूपेण कुर्वन्तु. अस्तु, इदानीं शीला भगिनी, भवती एतत् करोतु मार्जनं.
सः कृष्णफलकं मार्जनं करोति.
कर्तृपदं किं?
सः.
समीचीनम् अस्तु. अनन्तरं चित्रा भगिनी, द्वितीयं.
वयं इतिहासस्य लेखनं कुर्मः.
समीचीनम्. अनन्तरं लक्ष्मी भगिनी.
स्क्रीन् इस् गान्. देव पूजनं कुर्वन्ति. ते देवानां पूजनं कुर्वन्ति.
अस्तु, इदानीं राजेन्द्र महोदय.
त्वं वस्त्रस्य धारणं करोषि.
समीचीनम्. इदानीं प्रिया भगिनी.
अर्चनं करोति ज्ञानं. सः ज्ञानस्य अर्चनं करोति.
समीचीनम्. अनन्तरं राधा भगिनी.
आह्वानं कुर्वन्ति अतिथिः. ते अतिथ्याः आह्वानं कुर्वन्ति.
अतिथेः
अतिथिः अतिथेः
अस्तु. अस्तु इदानीं शीला भगिनि.
इस् इट् लैक् मति
अतिथि
तस्य लिङ्गं किम्
इकारान्त स्त्रीलिङ्ग्
न
पुल्लिङ्ग् so that's a hari it's like hari
oh mm.
hari okay
yanani iti napunsaka linga bhangini yanam yanan te yananam prakshalanam करोति ओ सः यानानां प्रक्षालनं करोति यानानि इत्युक्ते बहुवचन यानानां
सः यानानां प्रक्षालनं करोति
करोति
अनन्तरं एकः प्रश्नः भगिनि. The previous one, Atithehe or Atithi Naam, Bhagini, if it is like, is it Bhagavachanam? Why is it not Bhagavachanam, Bhagini?
Because they have only given it in Ekavachanam.
Oh, okay, sorry. Okay, thank you.
Tatra, Kuruvanti, don't get confused with Kuruvanti and Atithi.
Right. Yeah, I got confused with that, sorry. Thank you, Bhagini.
If it was that the guest welcomed them, then Ati, it would be in Bahuvachanam. But here, Te Kurvanti, Ati Tehe Ahvanam Kurvanti. Anantaram, Chitra Bhagini.
Aham, Yojana Yaha Udgoshanam Karomi.
योजनाः इति अस्ति बहुवचनं
योजनानां योजनानाम् उद्घोषणं करोमि.
समीचीनम्. अनन्तरं लक्ष्मी भगिनी.
योजना ओके उद्घाटनं करोषि कार्यक्रमाः त्वं कार्यक्रमाणाम् उद्घाटनं करोषि.
समीचीनम्. अनन्तरं नागेन्द्रमहोदय.
ते प्रतिभायाः प्रदर्शनं कुर्वन्ति.
समीचीनम्. अत्र प्रश्नाः सन्ति वा? अस्तु न सन्ति चेत् एकनिमिषम् अहम् अन्यत् एकं शेर् करोमि. एकनिमिषः तत्र
नागेन्द्र महोदय, शत्रु इति इस् इट् पुल्लिङ्ग भगिनी? शत्रु षष्ठी शत्रोः. इफ् इट्स् अ पुल्लिङ्ग, शत्रु इस् अ उकारान्त शब्द. देट्स् वै इट् इस् शत्रोः.
दृश्यते वा अहं किं शेर्
कृतवती?
अस्तु किमर्थं न अस्तु पश्यामि. परन्तु अस्तु इदानीं वयं तत्र विभाज्यप्रयोगस्य कुत्र कुत्र उपयोगमस्ति तत्र वाक्यानि कथं भवन्ति इति दृष्टवन्तः. इदानीं वयं विभाजनम् अत्र दत्तमस्ति. इदानीं दृश्यते वा?
हा भगिनि.
तत्र विभाजनं दत्तमस्ति, तस्य क्रियापदं किमस्ति इति कुर्वन्तु. अस्तु, इदानीं गमनं करोमि, तत्र गच्छामि इति भवति. अस्तु, आच्छादनं कुर्वन्ति किं भवति?
कुर्वन्ति इति क्रियापदं
ते आच्छादन्ति.
एकनिमिषः अहं लिखामि. तत्र प्रथमतया तत्र
भगिनी आच्छादयन्ति नाट् करेक्ट्? आच्छादयन्ति
द्वितीयः अस्ति. ते
आच्छादन्ति.
आच्छादयन्ति तृतीयं किं भवति?
परिहरणं करोति.
तत्र दत्तमस्ति अन्वेषयसि इति, परन्तु
no, no, the previous one is परिहरणं.
परिहरणं करोति.
परिहरणं
परिहरति.
परिहरति next one is already given. अन्वेषयसि, ते अन्वेषयसि, त्वं त्वं. चिन्तनं करोति, चिन्तयति,
चिन्तयामि, चिन्तयावः, चिन्तयामः,
कुर्मः,
बहुवचनं,
चिन्तयामः,
चिन्तयामः.
कष्टपदं किं?
वयं
वयं
वयं.
अनन्तरं
वयं
कुरुतः
वयं कुर्मः
लालतः
कुरुतः
कुरुतः इस् यु
लालयतः कुर्वः.
What is the next one?
नमः
आवां
कुर्मः.
नमावः. पठामः.
पठामः.
वयं पठामः.
पठामः
रमामि
रमामि अहं रमामि
Bhagini, number 5. Can I go back to number 5, Bhagini?
Lalanam Kurutaha.
Now, Kurutaha is Dvivachan of Prathama or it is a Tvam?
It's a Dvivachan, Kurutaha.
So, Sitaha Anti, so it should not be Vayam. It should be Tau or Te. No, but is it not Saha Tau?
Kurutaha. It should be Tau, actually. Kurutaha should be Tau Kurutaha, no?
Tau or Te for feminine Te.
Samichin. Atra Prashnaha Santiva.
Good catch, Mom.
Sulabha hasti va, katina hasti va?
Katina hasti.
We are afraid to go to Atmanepadi now.
Tatra Gita sopani tatra hasti va? Gita sopani tatra nasti iti chintiyami Atmanepadi.
Bhagini, can you scroll down a bit?
Can you share this document, please?
Karoli. Inaniyo. किञ्चित् कठिनः भवति एतत् कुत्र अस्तु इदानीं क्रियापदं दत्तमस्ति तस्य विभजनं करोतु
अस्तु
एकनिमिषः अस्तु प्रथमं
लालनं करोति
अस्तु प्रथमं एकनिमिषः प्रथमम् अस्ति अनुकुर्वन्ति इत्युक्ते किम्
टु फालो
अनुसरन्
मिमिक् अथवा इमिटेट्
मिमिक् ओके
अनन्तरं पिबति इत्यस्य पानम् इति भवति पानं तस्य पिबति इत्यस्ति पानं किं
तत्र पानं करोति पानं करोति
अनन्तरं लालयति तस्य किं
लालनं करोति
पठामि
पठनं करोमि
गच्छामः
गमनं कुर्मः
अनन्तरं शीला भगिनी गच्छामः
गमनं कुर्मः
अनन्तरम् इदानीं गायसि
गानं त्वं गायसि गानं करोषि
अनन्तरं धावतः
युवां धावनं
कुरुतः
आच्छादयति
आच्छादनं करोति
समीचीनं मण्डयति
मण्डनं करोति
विवृणोति
विवरणं करोति
विवरणं
विवरणं ऐसे
अस्तु अस्तु ऐ थाट् यु सेड् विवृणम् अस्तु
विवरणम्
अस्तु समीचीनम् अनन्तरं सङ्गृह्णाति
नो वि आर् नाट् एबल् टु सी यु हव् टु स्क्रोल् अप् सङ्ग्रहाति सङ्ग्रहणं करोति
सङ्ग्रहणं
सङ्ग्रहणं करोति
अनन्तरं
प्रक्षालयं करोति
प्रक्षालनं करोति
ओ प्रक्षालनं करोति
अस्तु
अनुपालनं
करोति कः कोऽपि अन्य
ओके नो ऐ विल् नाट् डू
अस्तु प्रक्षालयति कः वदति
प्रक्षालनं करोति
सः प्रक्षालनं करोति
अस्तु इदानीं नागेन्द्रमहोदय अनुपालयामः
अनुपालयामः
एकवचनं
भगिनि अनुपालयन् अनुपालनं
बहुवचनम्
उत्तमपुरुष बहुवचनं
वयम्
ओ ओ वयम् अनुपालनं कुर्मः
समीचीनम् अनन्तरं राधा भगिनि
समार्जयन्ति समार्जयन्ति ते समार्जनं
सम्मार्जनं
कुर्वन्ति
सम्मार्जनं कुर्मः
कुर्वन्ति न
कुर्वन्ति ऐ सेड् कुर्वन्ति इति किञ्चित् अया कुर्वन्ति वाट् कन्फ्यूस्
भगिनि पालयत यूयं पालनं कुरुत यूयं न पालयत यूयं
पालनं
यस्
पालयत
पालयत किं
यूयं पालयत
बहुवचन
यूयं
बहुवचन मध्यमपुरुष बहुवचन
I'm not sure of the form from kuruta or what is the form bhagini
kim balanam
yeah I think it is kuruta kuruta
balanam
kuruta yeah
anveshayamaha
anveshanam
vayam
anvayam
kurmaha
anveshanam
kurmaha
कुर्मः वयम् अन्वेषणं कुर्मः
समीचीनम् अस्तु समीचीनं
गच्छतु
इदानीं अत्र गच्छति गमनमिति भवन्तः
जानन्ति
अत्र गमनम् इति नास्ति चेत् तत्र
परिभ्रमति विदिन्दु न परिभ्रमणं करोति न फिफ्टीन् परिभ्रमति विल् बि परिभ्रमणं परिभ्रमणं करोति
अत्र अष्टादश वाक्यानि सन्ति
अन्वेषयामः
अस्तु
भगिनि गच्छति यु सेड् समथिङ्ग् एण्ड् यु स्टाप्
गमनं
करोति रैट्
तत्र गच्छति नास्ति चेत् तत्र अष्टादश क्रियापदानि सन्ति अत्र अस्तु भवान् अस्तु सर्वे अत्र त्रीणि क्रियापदानि उपयोगं कुर्वन्तु अपि तत्र पिबति पठामि गच्छामि गायति धावतः अस्तु एकनिमिष अस्तु, कुत्र अहम् एकं डाट् कृतवती, तानि क्रियापदानि दृष्ट्वा भवन्तः त्रीणि क्रियापदानि स्वीकुर्वन्तु. अस्तु, अपि तस्य फर् ईच् वन् रैट् सेव् वन् सेण्टेन्स् दट् यूसेस् विभज्यप्रयोगः एण्ड् वन् दट् डसन्ट् यूस् विभज्यप्रयोगः. अस्तु, पिबति न उपयोगं कुर्वन्तु, पठति. अस्तु, उपयोगं कुर्वन्तु. अस्तु, एतानि क्रियापदानि दृष्ट्वा कुर्वन्तु. यु हाव् वन् मिनिट् एक्साक्ट्लि.
उदाहरण भगिनी अनुकरणं कुर्वन्ति.
You can, okay, don't use anukurvanti. You have
Saha,
to...
Te...
Okay, you can use it.
Anu, te... Vidhaya...
Idani meva navadantu. Trini kriyapada drishtva sarvani...
Vidhalasya anukurvanti.
Radha bhani bhavati idani meva navadantu.
Okay.
Or else someone will take it. Asti. Sarve tasya vakyani santi va? Asti. Kaha pratamam karoti? Kaha pratamatya vadati?
अहं वदामि भगिनि.
अस्तु, तदा भगिनि भवत्याः प्रथमं क्रियापदं किं?
ते अनुकुर्वन्ति, अनुकरणं. नो, ऐ वोण्ट् डु द फस्ट् वन् भगिनि. ऐ गाट् इट्.
नै, दिस् ऐ थिंक यू यू डु दिस् भगिनि फस्ट्. वी आई थिंक वी ऑल आर कन्फ्यूज्ड.
अस्तु,
Pagini, are you asking us to like put a sentence using this, like Gruhasya Prakshalanam Karomi, like that?
Yeah, like that. Okay, I'll take Sammar Jayati. Aham Gruhasya Graham Sammar Jayami. Aham Gruhasya Sammar Janam Karomi. Asto. Abhi,
aham if I say prakshalayam, if I have to use aham hastam or hastau prakshalayami. Te hastau prakshalanam karoti.
Vibhajya prayoga asti chet.
ते हस्तस्य प्रक्षालनं करोति. Is that right?
Okay. इदानीं
फस्ट् वन् ऐ ट्रै भगिनि. अनुकुर्वन्ति ते बिडालस्य अनुकरणं कुर्वन्ति.
समीचीनम्.
अहं भगिनि अहं वदामि. अहं देवालयस्य करोमि.
समीचीनम्. अस्तु, अस्तु, अत्र प्रश्नाः सन्ति वा?
I think we should do this as homework also.
आम्, कार्तन दत्तुं शक्नोमि. अस्तु, ददामि. यदा समयः अस्ति चेत् कुर्वन्तु. अस्तु.
But can we do it a week after, because next Sunday I won't be there. I'm traveling for Diwali, so I probably will be coming back late in the evening on Sunday.
Me too, Bhagini. I will be listening only next week.
Ashta, chinta mast.
Bhagini, can you check if this is correct? Bhagini? Palayata is Bhagavachanam for Madhyama Purusha. So I was thinking UM Shishunam Palanam Kuruta. Is that correct, Bhagini?
Shishun
Palanam Kuruta. Why is it Shishun, Bhagini?
Vivatan. Dutiya Vivakti.
Oh.
Shashti we have to use.
But I thought we have to do Shashti Vibhakti.
You have to use
if Shashti. It's if it's Vibhakti Prayoga, then change it to
Shashti. We have to use, no? Vibhakti Prayoga.
I thought it was Shashti. So it is Shishunam, no?
Yeah, Palanam Kuruta is Vibhakti Prayoga.
Shishunam Palanam. Palanam should be Dutiya.
Yeah, so Yuyam Shishunam Palanam Kuruta is what I said.
That's correct.
Okay, thank you, Bhagini.
Atra Prashna Hasan.
Bhagini Mandayati Ityukte Kim, Bhagini?
To draw.
Mandayati Ityukte Adorn Athava Decorate.
Oh, to decorate, okay.
Asa. Prashna Hanna Santi Chet. अस्तु वयम् अग्रे गच्छामः. अत्र गीतासोपाने इदानीं तृतीयम् अभ्यासं कुर्मः.
पेज् नम्बर् 61.
संस्कृते किं पुटसङ्ख्या
एकषष्टिः.
अस्तु द्वितीयम् अभ्यासं कुर्मः. तत्र अस्तु एकनिमिषः. अस्तु चिन्ता भगिनी, भवती करोतु. प्रथमम् उदाहरणं वदतु, अपि द्वितीयं करोतु.
एषः घटः घटस्य पूरणं करोति. घोषः हृदयस्य विदारणं करोति.
कोशः हृदयस्य विदारणं
करोति.
अनन्तरं लक्ष्मीभगिनी तृतीयम् अपि चतुर्थं करोतु.
कृष्णः रथस्य स्थापनं करोति.
समीचीनं.
वयम् इन्द्रियाणि इन्द्रियाणां प्रेरणं कुर्मः. इन्द्रियाणां बहुवचनं
अपि अस्तु. इदानीम् अर्जुनः अपि भीमः पञ्चम अपि षष्ठं. अस्तु नागेन्द्र महोदय. अस्तु तत्र गीतासोपने द्वितीयम् अभ्यासं कुर्मः. अत्र पेरेन्थिसिस् मध्ये तत्र पदमस्ति, तस्य षष्टिविभक्तिरूपं वदनीयं. तत्र भवान् पञ्चमम् अपि षष्ठमम्
अभ्यासं करोति. दुःशासनस्य मारणं करोति.
समीचीनम्. इदानीं प्रिया भगिनी.
सः देवः सगुन्निः सगुन्यस्य हननं करोति.
शकुनेः
कपुलिङ्गः.
इस् इट् स्त्रीलिङ्गं?
शकुनेः शकुनेः
ओ रैट् शकुनेः मुनिः मुनेः सहदेवः शकुनेः हननं करोति एषः इन्द्रियाणां संयमनं करोति संयमनम् अर्थं किं भगिनि संयमनं
कण्ट्रोल् संयम
ओ
कण्ट्रोल्
ओके
अनन्तरं दादा भगिनि
कृष्णः गोपिकानां वस्त्राणाम् अपहरणं करोति योगी सर्वत्र ईश्वरस्य ईक्षणं करोति
समीचीनम् अस्तु इदानीं शीला भगिनी समापयतु
पुण्यकृतपापस्य तरणं करोति पुण्यकृतपापस्य तरणं करोति पापं नपुंसकलिङ्ग भगिनि अहं श्लोकस्य अनुवादनं करोमि अनुवादं करोमि
समीचीनम् अत्र प्रश्नाः सन्ति वा
एकं प्रश्नमस्ति भगिनि द सेकेण्ड् वन् घोषः हृदयस्य विदारणं करोति इत्युक्ते किं भगिनि
घोषः इत्युक्ते किं
घोषः इत्युक्ते लौड् लौड् वाय्स्
अनौन्सर्
टु डिक्लेर् अनौन्स्
अनौन्सर्
रूमर् इति अपि भवति विदारणम् इत्युक्ते किं
सेड् सेड् भगिनि
अथवा
सपोर्ट् न भगिनि
अथवा स्प्लिटिङ्ग्
या दट्स् वै ऐ गोट् कन्फ्यूस्ड् विदारणं वास् गिवन् अ सपोर्ट्
हा ओर् स्प्लिटिङ्ग् इट् सेस्
स्प्लिटिङ्ग् स्प्लिटिङ्ग्
स्प्लिटिङ्ग् सो इट्स् लैक् ब्रेक्स् द हार्ट् इस् इट् घोषं हृदयं विदारणं करोति इट् लैक् घोषं ब्रेक्स् द हार्ट्
नाम अपि विदारणस्य व्हाट आई सेड वाज सपोर्टिंग वाज this ek nimsha supporting is
vidarayati vidaranam karoti
Vidara.
Support
this is supporting
so
right now we
vidaranam okay vidaranam means
this
splitting
is supporting this is
splitting. And this is splitting okay
so vidaranam has two different meanings it can mean
no,
support
and no sir there's alpa prana and maha prana na da and dha
okay
that phrase is
supporting there are two different words
the first one is support bagini vidharanam
प्रश्नाः न सन्ति चेत् एकः अहं तत्र अन्यत् वेब्सैट् शेर् करोमि अस्तु तत्र अद्य वयं केवलं विदर्शिपुरः अतः एव वयं कुर्मः तत्र किमस्ति एकनिमिष किञ्चित् अस्तु भवन्तः एतत् अस्ति भवन्तः वाक्यानाम् अभ्यासं कुर्वन्ति वा अथवा नामपदानाम् अथवा क्रियापदानां
mix of all bagini
okay yeah, I can do mix of all sentences nouns or verbs
okay any one
okay. We'll start with sentences then go to it one second I want this I have to ask so I know which website to open पश्यामः अस्तु प्रथमतया वयं क्रियापद अस्तु वाक्यानां कुर्मः अत्र एतत् वाक्यं दत्तमस्ति लघु मृगः एव किन्तु
no, screen is not visible now okay
can see the screen yes
we can see. Now it's now we can see
लघु मृगः एव किन्तु अपायकरः तत्र किं करणीयं तत्र तस्य आङ्ग्लभाषायां किम् इति वदन्तु
लघु मृगः स्माल् डियर् डियर् यत् बट् आर् यत् इट् इस्
लघु मृगः इस् अ स्माल् एनिमल् बट् वेरि डेञ्जरस्
डेञ्जरस्
harmful
those
still does
yes sir but dangerous actually yeah. not bad
asta idani
aham murlim samyak vadayami hindustaniya sangeetam api ichhami I can play flute nicely
flute very well
I can play, play flute very well
but and, I like hindustani
and I like hindustani music
and sangeetam also I like
And I love Hindustani.
Yes.
No, well, he's saying Hindustani. It should be actually Hindustani music, no? Hindustani Sangeetam. Translation is wrong.
Hindustani Sangeetam is Hindustani music.
Music, yeah. Bhavantam Militva Aham Santushta Mama Shubha Kamana.
I'm happy to meet you.
Meeting you.
Good wishes.
And my wishes, good wishes.
I like
well all the best it was nice meeting you
also it's okay
bagini put santushta why is it santushta
because it's strilingam
ah
yada dharini snana graham katvati tada pramodha katva tasya yukakasya parivartanam krutavan when the wife went to take bath
When Pramod went to take a bath, then
Pramod went and
changed the clothes. Exchange
Dharani went to Dharani went to the bathroom. Pramod went and changed his shirt. Okay. Pratikshanam sanghakanam sanghanakam upakoti ganaha kartum shaknoti. Every minute sangha kanakam is computer right
computer
every minute upakoti ganana sanghanakam is computer
can calculate lot of numbers quickly
upakoti kartum is calculates millions of calculations every second.
Samijina. Good. You're getting it close enough. Sometimes that's not correct, sir.
Tasyaha graham vishalam nasti. Her house is not big.
Vishalam nasti.
Her house isn't very big. Okay.
Her house is not.
वैद्यकीयशालायाः प्रवेशपरीक्षा मेडिकल् कालेज् एण्ट्रन्स् एक्साम् यथा लिखितवती तदा मेडिकल् कालेज् इन् द फस्ट् वीक् शि वुडन्ट् हव् पास्ड् अनुत्तीर्ण आसम् ऐ फेल् फस्ट् टैम् ऐ रोट् द एण्ट्रन्स् एक्साम् फार् मेडिकल् कालेज् प्रथमतया प्रथमवारं वै प्रथमवारं मीन्स् फस्ट् वीक् न इट् विल् नाट् बि फस्ट्
टैम्
प्रथमवारम् इस् ओके तदा अनुत्तीर्णा आसम्
लिखितवती
आम् लिखितवती इस् ऐ रोट्
लिखामि नाम भगिनि फार् देट् शी वुडन्ट् इट् बि
लिखितवती
अहम् एतत् चलचित्रं दृष्टवान् एव अस्मि ऐ हेव् आलरेडी सीन् दिस् मूवी यत् अहं द्रष्टुं सिद्ध
तदापि पुनः अहं द्रष्टुं सिद्धः ऐ एम् रेडि टु सी इट् अगेन्
This is enough. Kriyapadanam abhyasam karuna because this seems a bit too easy.
Where do you get this, Bhagini? Is this in that Sanskrit dictionary?
Astu. Kim kim aham kutra...
Kaddataha.
Astu. Atra bhavantaha kaddataha tasi rupam na jananti parantu take the endings. That's the hint.
मध्यम पुरुष द्विवचन खड्डतः मध्यम पुरुष द्विवचनं
we'll take turns so that everybody can do it प्रथमं खड्डतः शीला भगिनी
what is the meaning bhagini kaddutah kaddatah
we'll see but right now where does it go
kaddatah that is dvivachan madhyama purusha
so which one
madhyama yes that one last one bhagini
good anantaram kaddati राधा भगिनि
प्रथमपुरुष एकवचन
प्रिया भगिनि खड्डथ
मध्यमपुरुष बहुवचनम्
अनन्तरं नागेन्द्र महोदय
उत्तम पुरुष बहुवचन कडामः
अस्तु एंड दिस इज ऑल इज लेफ्ट अस्तु इज एवरीबॉडी इज एवरीथिंग करेक्ट डस एवरीबॉडी एग्री
या
अस्तु
आम भगिनी
समीचीनम्
अस्तु वेरी गुड एक्सरसाइज भगिनी
अस्तु इदानी True or false? Let's not do the first one. I will help on this. This is kind of hard. Okay, one second. I will take out... This will be easy. Astu. Idani. शं सामः इति अस्ति एतत् उत्तमपुरुषः बहुवचनं वा?
आम्
आम्
बटावः एतस् मध्यमपुरुषः एकवचनं?
न
न
अर्घामि एतत् उत्तमपुरुषः एकवचनं?
आम्
आम्
एस् अर्जन्ति प्रथमपुरुषः बहुवचनं?
आम्
एस् ओटसि मध्यमपुरुषः एकवचनं? Is does everybody agree?
Mm-hmm.
When I ask, everybody please unmute and say so that I know.
Yes.
Good.
Bagini.
What do you want right here?
The other one took like third person singular.
Yes, sir.
What is the question, Bhagini?
One second, I will see. Okay, I get it. Okay, we haven't learned to do this, so I will just help on this. Okay, for now, Arbati. This is how you are supposed to figure that out is, Kritan Arbati wasn't there. Yes, sir. So, it is, we haven't learned active voice yet. First we go to verb root. So arb dhatuh asti. Tasya it's in third person singular, it will be arbati.
Arbati.
Yes. Anyways, new question. Second person dual. I think this is confusing when it's in English. Is it confusing when it's in English?
Agni.
Okay. Yeah. This will be easy. Javami. Uttama Purusha Ekavachanam.
Correct.
Sorry. Wrong one. Shelasi. Uttama Purusha
Ekavachanam. No, Agni.
Adhyama.
This is correct. Pratham Purusha Bahuvachan Ardhanti.
Bhagini?
Aam.
How do we say incorrect in Sanskrit?
Kobi Janati va?
Dosha asti.
Samyak nasti.
Dosha asti.
Na.
Na.
Samyak nasti will be better.
Samyak nasti or dosha asti?
Dosha asti.
Dosha asti. Okay.
Anantara. Asha. Invataha.
Dosha asti.
Pratham purush.
Dosha
asti. Dhivacha. This is wrong.
Gar. Gar. कर्तथः
मध्यमपुरुष द्विवचन मध्यमपुरुष द्विवचन दिस इज रॉन्ग
समीचीनम् अस्तु वरन्ति किं भवति
प्रथम पुरुष बहुवचन
मध्यमपुरुषः द्विवचनं
मध्यमपुरुष द्विवचनं
मध्यमपुरुषः
बहुवचनं
मध्यमपुरुषः
उत्तमपुरुषः
बहुवचनं
द्विवचनं
द्विवचनं
समीचीनं लट्लकारस्य अस्तु
परस्मैपदम्
ओ असमानं पदं चिनुता अस्तु So which one is not in latlakara?
The correct one, no?
First one, Shetamaha.
First one. This is it's the second one.
Oh.
Because this is in latlakara. This is not in latlakara.
Excepting the Shetamaha.
No, Shetamaha is correct.
Shetamaha is also correct.
Sitahanti, Sitahata, Ani Avahamaha. Ah yeah, all the four are right.
One second, I will just check.
Hey, taha, no, ta, it is ta, not taha.
See, taha, tha. No, see, taha, tha. Right. So, ta is also there, right?
Taha is wrong, no, ta is the
no,
right
one. No, it's Madhyama Purusha Dvivachan is taha.
Ek nimshaha. It is shit, tatuho.
Isn't it small ta with the double dots?
No.
One second, Vakini. Okay, let me see. Shetamaha. Where's the Prayog? Latlankara Sri. Anatari Tari. I don't see the odd one. We need it.
There's no odd here. All the ones are correct.
Well, let's just go.
Everything is right.
Thaha is Madhyam Purush Dvivachan.
Uttama
Purush Dvivachan. Second is Uttama Purush Dvivachan.
It is Pratham Purush Dvivachan.
Pratham Purush Dvivachan, sorry. Sitaha Anti. Pratham Purush
Dvivachan. Thaha is Prathama, yeah.
Madhyama Purusha Bahuvachan. Madhyama Purusha Bahuvachan.
Bahuvachan.
Uttama Purusha.
Bahuvachan. How do you pronounce this word?
Hlasataha.
Hlasataha.
Okay, this seems easy. Let me see if I can make this harder with nouns.
It's not that easy, Bhagini.
Well, you're getting everything.
Bhagini, let's do easy, Bhagini, so that we feel really confident.
If you do harder, then you'll get confident that you can do it harder.
Okay. That is good practice, Bhagini.
Yeah. Okay, I have only put it Saralaha.
Okay.
I'll just say Ajanta. Okay, let's just do practice with A. I'll say all lingams. Okay, good. Akshata.
Laghin. Lachini Bhya.
Bhagini, let's take turn.
One, two, three, four, five. There's five, so there's six. One person will be left out. Astu. Who wants to start?
Lachanebhya will be, I can do Lachanebhya will be Chaturthi Bahuvachan. Akarant Pulligna, so it will be Chaturthi Bahuvachan.
So next one, Lakshmi Bhagini.
Lachane Yashu, that is Saptame Bahuvachan. Saptame Bahuvachan.
Anantaram, Nagendra Mohdiya.
Lachana. Sambodhan Ekvachan.
Next, who was next? Let me see. Priya Bhagini.
Lachanam is Prathama Dvivachanam.
Is it Prathama Dvivachanam? Or Prathama Ekavachanam?
Lachanam is Dvivachanam, Bhagini.
No.
Oh.
It says akara.
Lachanam is
vanam.
Napunsakalinga. Okay.
Oh.
Palam,
okay,
pale,
okay.
Palani.
Lachanam, lachane, lachanani. Okay.
Napunsakalinga. Okay. Okay. It would be lachanam if it was the
lachane, lachanani.
Lachane. Ah, okay.
Next.
Ghatituhu.
Okay. Which one is?
This one is. This will be
the
Shashti.
Fourth one, Bhagini. Ghatituhu.
So the first one? This one?
Is no, it? The fourth one is wrong.
This one?
Yeah.
Okay.
The throho is used for. Ghatituhu is wrong.
That is Lotlakar.
Lotlakar? Why is Lotlakar coming here, Mahodaya?
Ghatituhu.
We are doing nouns, Mahodaya.
Oh.
Ghatitroho. I thought only Matro will go with that, Bhagini.
Pitroho.
Mata. Pitroho. So, what is the... What is this word?
It says Ghatitra.
Yeah, is that a relation?
What does Ghatitra mean?
Okay. Even if it's not relation, Pita and Kartuhu, they only have a difference in Pratama Vibhakti, not in the other Vibhaktis. Okay, so it will be Ghatituhu.
Bhagini, is there any meaning of the word Ghatituhu or is the wrong word?
It is a Lotlakara. That's why it's odd man out here.
It's not Lotlakara, Bhagini.
Oh, it's not. Okay.
Because this is a noun.
So it will be like... Pitra, Rukaranta Pulling, is it? Rukaranta Pulling, okay.
Varaniya. Napumsakalingam. So, Varaniyam. What is its Panchami Vibhakti? Eka Vachanam.
Varaniya. Varaniya, Varaniya.
Harani means Mati.
Haraniyat.
Haraniyat.
Haraniyat. Haraniyat.
Okay.
Samichana.
Ravitrubhyam. Ravitrubhyam could be Panchami.
Bahuvachana.
No, dvi.
Savitrubhyam.
Panchami dvivachanam.
Panchami dvivachanam.
Panchami dvivachanam.
Yeah, dvivachanam.
Ravitrunah is ekavachanam, the last one.
Ravitrunah.
Yeah, ekavachanam.
Actually, we haven't done this, so let's skip this. Yes, so we haven't done Rukarantanapamsakalinga.
Okay.
Okay. Which one goes where?
Chaturthi Dvivachanam.
Sajjamanayai. Bahuvachan. Tritiya Bahuvachan. There is no Tritiya. Okay.
There is no Tritiya.
Yeah.
Where do you use yai?
Chaturthi Vibhakti.
Chaturthi
Ekvachan, Bhagini.
Chaturthi Ekvachan, yeah.
Okay, I'll help you out here.
Bahuvachan, that's a bahuvachan. Oh, no.
Sajjananam.
Bahuvachanam, Pradhama Bahuvachan.
Dutiya Ekvachan, that's Sajjana.
Sajjamanaha is Sambodhan.
Correct. Okay, we will actually stop after we finish this exercise.
Akaranta napunsakalinga.
Panchami ekavachanam, Bhagini, first one.
The fourth one.
Second one is the Panchami Bhavachan.
Panchami Bhavachan.
Yes, Saptami. Last one is Saptami.
Lajjite
Saptami. Yes. Samichi. Atra Prashna Santiva.
It's a good exercise.
Very good exercise.
Aham links prayami. Tatra abhyasam kurvanto. Antasya atra api aham tadami. Tatra kimasti chit bhavantah ekam padam na janati chit tatra etat dadati chalachitram film iti. Astam. Astam. Idani vayam shanti mantram vadamah. Shila bhagina.
Sarve bhavantu sukhinah. Sarve santu niramayaha. Sarve bhadrani pasyantu. Ma kaschid dukkha bhag bhavet. Om shanti 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 hi. Om sarve bhavantu sukhinah. Sarve santu niramayaha. Sarve bhadrani pasyantu. Ma kaschid dukkha bhag bhavet. Om shanti 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 hi. Om sarve bhavantu sukhinah. Sarve santu niramayah. Sarve bhadrani pasyantu. Ma kaschid dukkha bhag bhavet. Om shanti 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 hi. Sri Gurubhyo namaha. Hari Om.
धन्यवादः भगिनी नमस्कारः